प्रत्यया किं नो विहाय सन्तं हृद्येशचिन्तारहितो हृदाख्यः कथं स्मरामस्तममेयमेकं तस्य स्मृतिस्तत्र गृहैव निष्ठा मृत्युमुपैति पूर्वम् अथ स्वभावादमृतेषु तेषु कथं पुनः मृत्युदियोऽवकाशः सर्वैर्निदानं जगतोऽहमश्च वाच्य प्रभुक्तश्चिदपारशक्तिः चित्रेत्रलोक्यं च विलोकिता च पट प्रकाशोऽप्यभवत् स एकः आरभ्यते जीव जगत्परात्मा तत्त्वाभिधानेन मतं समस्तम् इदं त्रयं यावदहं मदि स्यात् सर्वोत्तमाहं मदिशून्यनिष्ठा सत्यं मृषा वा चिदिदं जडं वा दुःखं सुखं वेति मुदा विहारः अदृष्टलोकानिरहं प्रतीते निष्ठा विकल्पा बुद्धिर्जगदीश्वरे च सरूपधीरात्मनि यावदस्ति अरूप आत्मा यदि क प्रपश्ये सा दृष्टिरेका नवतिर्यपूर्णा यत्पञ्चकोशात्मकमस्ति देहम् तदन्तरा किं भुवनं च कास्ति देहं विना पञ्चविधं तदेतत् पश्यन्ति के वा भुवनं भणन्तु शब्दादिरूपं भुवनं समस्तं शब्दादिसत्त्वम् वशे स्यात् मनोमयं तद्भुवनं वदामः धियासहोदेति धियास्तमेति लोकस्ततोधि प्रविभास्य एषः त्रिलोकजन्म क्षयनामपूर्णम् सत्त्वस्तु जन्म क्षयशून्यमेकम् भवन्तु सद्दर्शनसाधनानि परस्य नामाकृतिभिः सपर्याः सत्त्वस्तुनि प्राप्तदात्मभावा निष्ठैव सद्दर्शनमेव्यवेहि द्वन्द्वानि सर्वाण्यखिलास्त्रिमुख्यः किञ्चित् समाश्रित्य विभान्ति वस्तु तन्मार्गणे स्यात् कलितं समस्तं न पश्यतां स चलनं कदापि विद्या कथं भाति न चेदविद्या विद्यां विना किं प्रतिभा
बोध्यस्य च संश्रयं स्वं विजानतस्तद्विपयं विनश्ये निद्रा न विद्या ग्रहणं न विद्या गृह्णाति किञ्चिन् न यथार्थबोधे निद्रा पदार्थग्रहणे परा स्यात् चिदेव विद्या विलसन्त्यशून्या सत्यश्चिदात्मा विविधाकृतिश्चित् सिद्धे पृथक् सत्यजितो न भिन्ना भूषा विकारा किमु सन्धि सत्यं विना सुवर्णं पृथगत्रलोके तद्योष्मदोरस्मदि सम्प्रदिष्टा तस्मिन् विनष्टे स्मदि मूलबोधा तद्योष्मदस्मन् मदिवर्जितैका स्थितिर्ज्वलन्ति सहजात्मनस्य भूतं भविष्यच्च भवत्स्वकाले तद्वर्तमानस्य विहाय तत्त्वं हास्यान्न किं स्यात् तदभावि चर्चा विनैकसंख्यां गणमेव लोके क्वं भारि दिक्कालकथा विना स्मात् दिक्काललीले हवपूर्वयं चेत् न क्वापि भावो न कदापि भावो वयं तु सर्वत्र सदा आत्मभावे यजडौ समाना वेगस्य देहे हृदि दीप्त आत्मा आक्रम्य देहं च जगच्च पूर्णः परस्य मेयं तरुमात्रमात्मा अज्ञस्य विज्ञस्य च विश्वमस्ति पूर्वस्य दृश्यं जगदेव सत्यं परस्य दृश्याश्रयभूतमेकं सत्यं प्रपूर्णं प्रविभाग्यरूपम् विधे प्रयत्नस्य च कोऽपि वादस्तयोर्द्वयोर्मूलमजानतां स्यात् विधे प्रयत्नस्य च मूलवस्तु सञ्जानतां नैव विधेर्न यत्नः यदीशि दुर्वीक्षणमे आलीक्ष्य तन्मानसि के क्षणं स्यात् न द्रष्टुरन्यः परमो हि तस्य दीक्षा स्वमूले प्रवीय निष्ठा आत्मानवीक्षेत परं प्रपश्येत् नित्यागमोक्ते सुलभो न भावः नात्मैव दृश्यो यदि काकदेशे स्वयं तदन्ये भवनं तदीक्षा धिये प्रकाशं परमो वितीर्य स्वयं नियोन्तः प्रविभाति गुप्तः धियं परावर्त्य धियोन्तरेत्र संयोजनानेश्वरदृष्टिरन्या नवति देहोऽहमिति प्रसुप्तौ Sarupa, Virupa, Nani, Kamukha. विद्धिः सदैव सिद्धिः स्वप्नोपमानात् खलु सिद्धयोन्यः स्वप्नप्रबुद्धस्य कथं नु सद्यः सदे स्थितः किं पुनरेति माया सोऽहं विचारो वपुरात्मभावे साहाय्यकारी परमार्गणस्य स्वात्मैक्यसिद्धो स पुनर्निरर्थो यथा नरत्वप्रमद नरस्य द्वैतं विचारे परमार्थबोधे साधुवादः गणेशनात्रादशमे विनष्टे पश्चाच्च लब्धे दशमत्वमेकम् करोमि कर्मे दिनरो विजानन् बाध्यो भवेत् कर्म फलं च भोक्तुम् कर्मत्रयं नश्यति सैव मुक्तिः बद्धत्वभावे सति मोक्षचिन्ता बन्धस्तु कस्येति विचारणेन सिद्धे स्वयं स्वात्मनि नित्यमुक्ते क्व बन्धचिन्ता क्व च मोक्षचिन्ता रूपिण्यरूपिण्युभयात्मिका च मुक्ते स्त्रिरूपेति विदो वदन्ति इदं त्रयं या विविनद्यहन्ति सस्या प्रणाशः परमार्थमुक्तिः दर्शनं द्राविडवाङ्मिबद्धम्